सर्वेभ्यो नमस्कारः। अद्य सिद्धान्तकौमुद्याः स्त्रीप्रत्ययप्रकरणे एकादशः पाठः, नवेम्बर् मासस्य षड्विंशः दिनाङ्कः। येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयम् नमस्कृत्य तदुक्तिः परिभाव्य च व्याकरणसिद्धान्तकौमुदीयम् विरच्यते। सिद्धान्तकौमुद्याम् नीप् प्रकरणे स्मः। लास्ट् वीक् वि सा यञश्च, ययन्तात् नीप् स्यात्। सो गर्गादिभ्यो ञः इति सूत्रेण, गर्गादिभ्यो ञञ् इति सूत्रेण ञञ् प्रत्ययः विधीयते। सो तदन्तात् नीप् भवति स्त्रियां। गर्गस्य अपत्यं स्त्री इत्यर्थे गर्गशब्दाद् ञञ् प्रत्ययः गार्ग्य इति भवति। तस्मात् नीपि कृत गार्गी इति रूपम्। ततः प्राजां ष्फ तद्धितः इत्यनेन तस्यैव ययन्तस्य विकल्पेन ष्फ प्रत्ययः विहितः। ष्फप्रत्यये कृते तत्र षकारस्य इत्संज्ञा भवति, सः तद्धितप्रत्ययः इत्संज्ञा भवति। फकारः अस्ति, फकारस्य आयन् इत्यादेशः। आदेशे कृते पुनः नीष् प्रत्ययः अपि भवति। शिप्रविधिसामर्थ्यात् नीष् इति कृत्वात् गार्ग्यायणी इति रूपं सिद्ध्यति विकल्पेन। तस्य अभावे नीप् एश्च इत्यनेन नीप् भवति गार्गी इति रूपं, रूपद्वयं भवति। सर्वत्र लोहितादिकतन्तेभ्यः इत्यनेन तु लोहितादिगणः गर्गाद्यन्तर्गणः। सो विदिन् द गर्गादि क्लास् देर् इस् अ सब् क्लास् लोहितादि कतन्त, स्टार्टिङ्ग् फ्रोम् लोहित टिल् कत। सो फार् दीस् वर्ड्स् देर् इस् अ कम्पल्सरि ष्फ फार् द गर्गादिगण जनरलि द ष्फ इस् आप्शन्। लोहितादिगणे तु नित्यमेव ष्फप्रत्ययः भवति। ष्फप्रत्यये कृते पुनः नीष् अपि भवति। लोहित्यायनी इति रूपम्, एकमेव रूपम्। Similarly, Kauravya Manduka Abhyamcha. For these two words, Kauravya and Manduka, there is Shpa followed by Nish. So you will have Kauravyayani and Mandukayani form. So coming back to Neep, so this was a deviation from Neep. So Yeshta is Neep, again Vayasi Prathame. Prathama Vayo Vatina Neep Bhavati. Kumara Shabdati Neepi Krute Kumari. तत्रैव वयस् चिचरम इति वाच्यम् इति वार्तिकमपि दृष्टम्। सो नौ कण्टिन्यूयिङ्ग् वित् द नीप् द्विगोः इति अग्रिमं सूत्रं, पादस्य एकविंशं सूत्रम्। दिस् इस् अ सिङ्गल् वर्ड् अजाद्यतष्टाप् इत्यतः अतः इति अनुवर्तते। तदन्येभ्यो नीप् इत्यतः नीप् इत्यपि अनुवर्तते। अदन्तात् द्विगोः नीप् स्यात् इति सूत्रार्थः। अदन्तात् ह्रस्वकारान्तात् द्विगोः, द्विगुसमासात् नीप् प्रत्ययः भवति इत्यर्थः। त्रिलोकी इति उदाहरणं दत्तम्। सो त्रिलोकी इति व्याख्याने पश्यामश्चेत् त्रयाणां लोकानां समाहारः इति विग्रहः। समाहारे द्विगुः, कथितार्थोत्तरपदसमाहारे च इति सूत्रेण द्विगुसमासः। अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः द्वित्वं। सो दिस् इस् अ वार्तिक विच् विल् स्टडी इन् द्विगुसमासः। सो इफ् द उत्तरपद हेपन्स् टु बि एन् अकारान्त, सो इट् विल् बि इन् स्त्रीलिङ्ग इत्यस्ति। अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः इति स्त्रीत्वं। त्रिलोकशब्दः तापवादः नीप्। सो द त्रिलोक इस् द समस्तपद। ह्रस्वकारान्तत्वात् अजाद्यतष्टाप् इत्यनेन ताप् प्राप्नोति। तापः अपवादत्वेन द्विगोः इत्यनेन ईप्। त्रिलोक ई इत्यस्ति। यस्येपि च इत्यनेन अकारस्य लोपे त्रिलोकी इति रूपम् इति भावः। सो विह त्रिलोकी, त्रिलोकी इस् एन् एक्साम्पल् फार् द्विगुसमस्त। मेनी सच् थिङ्ग्स् यु हाव् पञ्चवटी एट्सेट्रा। सो एव्रिवेर् यु हाव् नीप् बै द्विगोः। सो इट्स् अ जनरल् सूत्र, जस्ट् सेस् फार् एनी द्विगु समासम् इन् स्त्रीलिङ्ग That is, it will be in Strilinga only if it is Akaranta Uttarapad. Otherwise, Samahara is generally in Napumsakalinga. So, if there is an Akaranta Uttarapada, there will be in Strilinga. So, Strilinga, Neep Pratyaha Bhavati, Ikaranta Tvamati, Samhavati. Ajaditvat Tripala Trinika. However, there are some Vibhusamasas which are Akaranta, that is, which have Tap and not Neep. कथम इति चेत् अजादि गणे तस्य पाठः अंगीक्रियते अजादिः आकृति गणः इति उक्तं सो यू कैन ऐड ऑन सच वर्ड्स टू अजादि गण अजादि गणे पाठस्य अंगीकारः त्रिफला इति एकम् उदाहरणम् त्रिणीका त्रयाणां फलानां समाहारः एनः त्रिणीका त्रयाणां अनीकानां समाहारः विच इज फर्स्ट वर्ड्स सेना And so on. So in all those cases, we assume and we accept Patha, not we. The Patha has been accepted by the Bhashyakara and other commentators in Ajadigana. So Tena Sahetu Shakyate. Ite Utsargitam Sutram. Asya Nishedha Sutrani Santi. There are three sutras which prevent Neep for Dvigu Samasa. Dvigu Samasa Neep Sasya Nishetha Sutran Santhi Aparimana Vistasita Kambal Yebhyo Na Tarthita Luthi. Iti Sutram Trini Padani Santhi Aparimana Vista Achita Kambal Yebhyo Na Tarthita Luthi. Neep Ityanu Vartate Dvigohu Ityanu Vartate Aparimanaantat विस्ताद्यन्ताच्च द्विगोः नीप् न स्यात् तद्धितलुहि सति सेवरल् कण्डीशन्स् फस्ट् इस् दे शुड् बि तद्धितलुक् सो दिस् आब्वियस्लि विल् अप्लै ओन्ली टु दट् द्विगु समास विच् इस् इन् तद्धितार्थ सो फर् दिस् यु शुड् नो द बेसिक्स् आफ् द्विगु समास द्विगु समास इस् अ त्री कैण्ड्स् राइट् दिस् इस् तद्धितार्थ उत्तरपद समाहार सूत्र दिगुसमास निधानक सूत्रम अस्ति तद्धितार्थोत्तरपद समाहारे च तद्धितार्थे दिगुसमासः भवति उत्तरपदे परे दिगुसमासः भवति समाहारे दिगुसमासः भवति समाहारे उदाहरणं दृष्टं त्रयाणां लोकानां समाहारः त्रिलोकी इत्यादि सो समाहार इज अ ग्रुप एंड यू रेफर टू थिंग्स एज अ ग्रुप यू अप्लाई इट उत्तरपदे परे द्विगुः एक्चुअली इन बहुव्रीहि समास देयर आर मोर देन टू वर्ड्स से पंच गावः धनं यस्य सः एज अ बहुव्रीहि समास सो ही हु हैज फाइव काउस एज हिज वेल्थ दिस इज हिज वेल्थ कंसिस्ट्स ऑफ फाइव काउस पंच गावः धनं यस्य सः सः बहुव्रीहि समास बहुव्रीहि समासस्य अन्तः पंच गावः इत्यस्ति तत्र द्विगु समासः क्रियते वि से तद् द्विगु गर्भ बहुव्रीहि विदिन् द बहुव्रीहि समास द टू वर्ड्स विल गेट द्विगु समास पंच गावः इत्यत्र द्विगु समासः क्रियते उत्तरपदे परे देयर इज द धने पंच गावः धनम् इति बहुव्रीहि समासे धनम् इति उत्तरपदमस्ति तस्मिन् परे पंचशब्दस्य गोशब्दस्य च द्विगु समासः क्रियते सः उत्तरपदद्विगुः उत्तरपदे परे द्विगु समासः अपरः अस्ति तद्धितार्थे सो टु तद्धितार्थे द्विगुसमासः उदाहरणार्थं षण्मातुरः षण्णां मातॄणाम् अपत्यं पुमान् इत्यर्थे षट् मातृ इत्यनयोः द्विगुसमासः क्रियते द्विगुसमासे कृते मातृसङ्ख्यासम्बद्धपूर्वायाः इत्यनेन अण् प्रत्ययः क्रियते तद्धितप्रत्ययः And there is Utta Adesh. So, this Tathitartha Dvigu is one where we do a Dvigu Samasa and there is a Tathita Pratyaya which follows. Okay, Tathitartha Vishaye. So, knowing that there is a Tathitartha being there, we do a Dvigu Samasa. Saha Tathita Dvigu. There are cases where, in this case, there is a Tathita Pratyaya added and the Tathita Pratyaya will be deleted. Okay, so there is a general sutra which says, Uh, which gives a look for this sadhita pratyaya which is added. So now sadhita luki sati, in such a case when the sadhita pratyaya has been added and deleted, sadhita luki sati dvigoho neet na bhavati, there is no neet, that is neet is prevented in some cases. Aparimana antat vistadyantat, where aparimana antat, where the final word of the dvigo samasa does not indicate a parimana. Aparimana antat, parimanam, parimana is a measure. Say you have a kilogram, a centimeter, mile, etc. All these are measures. So for similarly, you have many words in Sanskrit which indicate parimana. Okay? So there is pala, there is bhara, there is adhaka, there is vitsa, achita, etc. Many words in Sanskrit which we will later read in the Vyakhyana which indicate parimana. So aparimana antar, parimanavachakah shabdah ante na bhavet. Sabdashasya dvigusamasasya neep na bhavati. Sadhidaluki sati aparimanantasya dvigusamasasya neep na bhavati. Iti ekah bhavah. And then vistadyantacha, vista achita kambalya. Iti trini padani santi, trini api parimanavachakani. All these three indicate measure. Okay? So if these three words are at the end of a dvigusamasa, there is no neep. So when we are saying there is no neep, means there is ta. So neep nishidh hai, ajar dhitashta apitane na, ta pratyaha bhavati, ityartha. So aparimana antat, vistadyantat dvigoho, neep nasyat, tadhitaluki sati. Panchabhihi ashvaihi krita, panchashva, yudahana. Panchabhihi ashvaihi krita, something which was bought with five horses. So in those days the barter system was the most prevalent. You buy something in exchange for something. So this something, that is, you have to see what is that visheshya, kinchit vastu. Panchabhihi ashvaihi kritam. So panchabhihi ashvaihi krita ityarthe panchashva iti arhiyaha thak. So there is thak pratyaya. Tena kritam iti thak pratyaha. Okay. So tasya adhyartha purva dvigohu luk asamyayam iti sutram asti. Tena sutrena luk bhavati. So once you do dvigu samasa, panchabhihi ashvaihi krita iti arthe, pancha shabdasya ashva shabdasya cha dvigu samasa kriyate, pancha ashva shabdat thak pratyaha, tadhita pratyaha kriyate, tasya tadhita pratyaya adhyartha purva dvigohu luk asamyayam iti arthe, luk bhavati. So now after this, there should have been neep by dvigohu. Dvigohu ityanena neepi prapte, anena sutrena nishithyate. Kimartham aparimanantam, the final word. Samasasya antyam padam, ashva iti padam, parimanavachakam na. Ashva is not a word which indicates measure. Okay? So therefore, there is no neep. Neep is prevented by the sutra, and instead of it, there is ta, and it becomes panchashva. आर्हियष्ठक तस्य अध्यर्थ इति लुक गौ विस्तौ पतति द्विविस्ता. सो अपरिमाण एग्जांपल फॉर अपरिमाण इज पंचाश्व. सो नेक्स्ट ही गिव्स एग्जांपल फॉर वित्त अचित कंबल्य. द्वौ विस्तौ पतति द्विविस्ता. सो गौ विस्तौ इति व्याख्यानं पश्यामश्चेत् सुवर्ण विस्तौ हेमनोक्षे इति अर्थः. So vista and suvarna are a measure for gold. Okay. So hemnaha. So gold itself, for measuring gold, there are special measures. There were. Okay. So there only he says, gunjaha panchadyam ashataha. Gunja is a particular seed. Okay. So it is a seed which is used for measuring gold. It's a very small seed. So gold was measured in terms of, say, in multiples of that. So he says, gunja panchadya mashakaha te shodashakshaha mukita. So gunja panchakam mashaparimahram. So the minute or the smallest unit is gunja. So five gunjas will make a masha. Masha shodashakam aksha parimahram. So 16 mashas together, come together to make one akshara. That's a ashiti gunjatmakam. So if you take it in terms of gunja, it will be 16 into 5, which is 80 gunjas will make one akshara. Tasmin hema vishaye akshaparimane suvarna vista shabdau ityartha. So this aksha, when it is applies to gold, it can be called as suvarna and vista. So vista is a measure of gold, weighing gold, which amounts to around 80 gunja. The one gunja is taken as a standard. So now the point is, vista is a parimana vachaka. So it will not fall under the previous category. Aparimananta ityatra na bhavati aitam parimana vachakam ityataha. Ataha punaha visheshena ullikhyate vista iti shabdaha yadi ante asti divasamasasya ante tarhi tatra neek na bhavati. Dvau vistau patati iti nigrahe tadhitartha iti dvibuho samhavatyavaharati pachati iti thak. So there is a tadhita pratyaya called thak. Tasya antyartha purva dvigoho ityanena luk bhavati. So there is tadhita luk. Tadhita luk is ati vistadyanta dvigoho neek na syaat. Dvigoho iti neek is prashidhe sati tahi vivista musha. So vivista refers to a musha, which is a vessel. Okay, a vessel which is used to melt gold. A huge vessel, which is dvivista parimanaka hiranyam dravayati. So that vessel which is capable of melting or used for melting two vistas of gold is called dvivista. So obviously you require different measures of say different vessels to melt different amounts or volumes of gold. So dvivista parimanaka hiranyam dravayati. So patati ityasya pachiriha dravane dartavyaha, that which can be used to melt. You cannot cook gold, right? So it is melting of gold. So that vessel which can melt two vistas of gold is called vivista. So atra vivista shabdat dvigohu iti nipi prapte anena sutrena ishidhyate aparimana vistasita vista shabdah asti ityatah nip na bhavati tapeva bhavati. Achita, dvyachita, dvau achitau vahati. So that which can carry two achita, achitas, is dvyachita shakati. So a cart which can carry a load of two achitas. So again achita is a measure. So look at the vyakhyana. Achito dasha bharaha ityavaraha. So 10 bharas is called one achita. So what is a bhara? Tulastriyam palashatam bharahasya vimshatih kumar. So 100 palas is called bhara. So again this will all go on levels. Where you start from is he will show again where this pala comes. So a definition of pala is given there. So 100 palas is called one bhara and 10 bharas, dasha bharaha asitaha. A measure of 10 bharas is called asita. So dvau asitau asitau vahati ityarthe adhaka asita patra konyatarasyam iti dvigoshtham shtayati khatano rabhave pragvatiyaha thai. So there is thai pratyaya adhyadhyayati tatsiluk, which is then deleted. So tatsilukhi sati anena sutrena nipi nishidhe bhavati. So dvyachita shakati. Dvi kambalya is a grim udaharanam. Parimana vistachita kambalyesha. So dvi kambalya. Kambalasya prakriti bhutam dravyam kambalyam urna palashatam. So kambala is a mat or a, what do you call a rug which you use for the covering yourself. So kambalasya prakriti bhutam dravyam, it is made from wool, right? A woolen mattress. So prakriti bhutam dravyam kambalyam urna palashatam. Urna, that is the wool which measure palashatam, 100 palas, is called kambalya. So kambalya refers to wool measuring about 100 palas. No? Tadartham vikrute prakrutam vityarthe kambalatha samyayam vityati. So that is okay. Vabhyam kambalyabhyam krita iti vigraha. So dvikambalya, vabhyam kambalyabhyam krita. Something which was bought giving to kambalyas. That is wool which measured to kambalyas. So dvabhyam kambalyabhyam krita iti vigraha. Tena kritam iti thayaha agvirtha iti lukha. Dvigohu iti niti anena pratishidhe. Taap. So there is Tadhita Luk and there is Neep which is Nishiddha by this sutra. So we have Ajarta Dashta, Vikambalya, the Rukum. So Aparimana Vitta Achita Kambalya. So in the previous thing, I think there was a typing error. I've always thought this as Achita, this should be Achita. So Aparimana Vitta Achita Kambalya. न तद्धि तलुकी तो तद्धि तलुकी सति नीप न भवति इत्यर्थः परिमाणान्तात्तु द्राढ्यति सो दिस इज अपरिमाणान्तात्तु सो इफ इट इज अ मेजर इफ द लास्ट वर्ड इन द द्विगु समास इज अ टर्म व्हिच इंडिकेट्स मेजर तदा तु नीप भवति इत्यर्थः सो परिमाणान्तात्तु द्राढ्यति So he says, what is Adhaka? Parimanam Sattu iti Pratihe, Vyakhyane. Gunja Panchatum Ashratyat, Te Suvarnastu Shodasha. Palam Suvarnash Chatvaraha, Panchavapi Pratihitam. Paladvayam Tu Prasutam, Dvigunam Kudavam Matam. Chaturphik Kudavai Prasthaha, Prasthash Chatvara Adhaka. It is Smriti. Actually, this entire thing on measures is a huge topic, but there have been different kinds of measures which have been used. I mean, only from such commentaries you get to know the extent of the different kinds of measures that were used. So again he says, gunja panchatu mashaha syat. So the five gunjas will make one masha. Te suvaranastu shodasha. 16 mashas will make one suvarna or vista or aksha. They are called by different names. Palam suvarnash chatvaraha. Four suvarna will make one pala. Panchamapi Pratyetitam. Four or five, there is a difference in opinion. So they will make one pala. Paladvayam tu prasrutam. So two palas is called one prasruta. Dvigunam kudamam matam. And double that is called kudava. That is four palas. Chaturbhih kudavai prasthaha. Four kudavas together will be called one prastha. Prasthash chatvara adhakaha. So the adhaka refers to four prasthas. So if you want, you can calculate how many palas it is or how many gunjas it is, going back to the main unit. So now, adhaka is a parimana vachaka. That is the point. So, parimana vachaka shabdaha adhaka iti. So, adhaka upatati iti vigrahe. So, a vessel which is capable of eating two adhakas of something, say probably rice. So, adhaka is a pretty big measure from what we have seen. So, vessel which can cook two adhakas pachati iti vigrahe adhakasita patrat khunyatarasyam vibhoshthamshcha iti khatano rabhave prapadiyashthai so there is thai adhyartha iti luk vigoho iti neep so since this does not fall into aparimananta since this is a parimananta and it is not mentioned in Vista Achita Kambalya. Satra Nibaha Nishesaha Nasti Dvigoho Ityanena Nib Bhavati Vyadhati Iti Rupam. Sadhita Luki Kim. So this Nib Nishesaha applies only when there is Sadhita Luk. This is there is Sadhita Arthe Dhu Samasaha. तस्य तथित प्रत्ययस्य लुक् भवति चेदेव अयं निषेधः प्रवर्तते समाहारे पञ्चाशी समाहारे दिगसमासः अस्ति चेत् नीप् भवत्येव पञ्चानाम् अश्वानां समाहारः अ ग्रूप् आफ् फैव् हार्सस् इत्यर्थे तु भवति पञ्चाश्वी इति रूपं द्विगोः इत्यनेन नीप् प्रत्ययः अग्रिमं सूत्रमस्ति काण्डान्तात् क्षेत्रे. इदमपि निषेधसूत्रं, द्विगोः निषेधात्मकं सूत्रं. फलद्वयमस्ति काण्डान्तात् क्षेत्रे. नीति तेन वर्तते, द्विगोः तेन वर्तते, न तथितलुकि, तथितलुकि प्रति द्विगोः नीप् न भवति इत्यर्थः. कस्मात् काण्डान्तात्, काण्ड द वर्ड् काण्ड इस् अट् द एण्ड् आफ् अ द्विगु समासः. क्षेत्रे यः काण्डान्तो द्विगुः ततो न नीप् तथितलुकि. सो तथितलुक् भवेत् द्विगु समासः, तत्र तद्धितार्थे द्विगु समासः तथितस्य लुक् कृतः. काण्डान्तः समासस्य अन्ते काण्डशब्दः अस्ति. काण्डशब्दस्य कः अर्थः इति पश्यामः. किञ्च क्षेत्रवाचकः सः, तत्र विशेष्यं भवति क्षेत्रं. काण्ड इस् अगेन् यूनिट् आफ् मेजर्मेण्ट्. सो वेन् दिस् मेजर्मेण्ट् अप्लैस् टु लेण्ड् क्षेत्रे, when it applies to land, so there are many conditions, very specific sutra. So tathidathe divu samasah kratah, tatra tathita pratyasya luk kratah asti, samasasyante kanda shabdah asti, sacha divu samasah samastapadam kshetra vishayakam. So it refers to a measure of kshetra, land. Tadatu neep na bhavati ityarthah. उदाहरणं, द्वे काण्डे प्रमाणम् अस्याः द्विकाण्ड क्षेत्रभक्तिः. क्षेत्रभक्तिः इस् अ पोर्शन् आफ् लेण्ड्, पार्ट् आफ् लेण्ड् विच् मेजर्स् टु काण्ड. द्वे काण्डे प्रमाणम् अस्याः, टु काण्ड दर् मेजर् आफ् इट् इत्यर्थे द्विकाण्ड इति रूपं. सो द्विकाण्डशब्दयोः द्विगुसमासः कृतः, ततः कथितप्रत्ययः तस्य लुक् द्विकाण्ड इत्येव अस्ति. Now, this is a dvigu samasa, there has been kathita luk, there is kanda at the end, and it refers to land. Ataha, neeti nishidhe, dvikanda kshetra bhakti, dvikanda iti rupam, saam bhavati. So, dve kande iti pratike. Shodasharatnyaya maha gandaha, kandam iti smritihi. So, kandam refers to a length of shodasharatni. So, aratni is again a measure of length, a popular measure. Aratni refers to the length from the elbow till the tip of the last finger. This is a popular measure for men. If you should know of, say, vine flowers in India, it is always done with that aratni. I don't know what it is called in other languages. In Kannada, it is called as mola. It refers to that length. The length from the little finger, tip of the little finger till the elbow is called aratni. So, shodasha aratnyayamaha gandaha, a stick of length measuring 16 aratni is called kanda. So, now, dve kande pramana. So, a land whose length is 2 kanda, which is 32 aratni. A land, since it refers to land, it has to be length and breadth both. So, this is covered by that area. So, shodasharatnyaya maha dandaha kandam iti smritihi. Dve kande pramanasyaha iti vikrahe. Tathitaktha iti dvigu samase. Dvikanda shabdasya kshetravartitve. Napumsakatva shanta vidasaya kshetrabhaktihi iti visheshya upadana. Now it refers to kshetra. It should have been dikandam kshetram. If the vishesha is just kshetra, it would have been dikandam kshetram. So if there is no sreelinga, so there is no prasakti of neep or anything. So he says kshetra bhakti as the visheshana. So bhakti is measured to means a measure or a part or a portion of land. Okay, so that is just for sreelinga. He has taken kshetra bhakti. So, kshetrabhaktihi iti visheshyopadanam. So, then he goes on to say, pramane dvayasach iti vihidasya matrasaha, pramane laha dvigor nityam iti luk. So, he shows there is tathita luk. Pramane dvayasach dakhmai matrasaha iti sutrena matrasach pratyaha kriyate. So, pramane laha dvigor nityam iti sutrena tasya matrasach pratyasya luk krataha. So, there is tathita luk. क्षेत्रे किं द्विकाण्डी रज्जुः. सो दिस् sutra applies only if the dvigu samasa is referring to land. So dvikandi is this, dvikande pramanam, again a length of two kandas, but now this length refers to a rope. Rajjuhu, a rope of length, two kandas, ityarthetu, kshetre iti nasti. So it does not apply to kshetra and therefore there is no nishedha. Dvigoho ni nishedha nasti, ni peva bhavati, dvikandi rajjuhu. So now if somebody says dvikanda, even without visheshya, it is obvious that it is referring to land. Yes, only if there is land, then there will be ta. So if it is anything else, there will be ni. Okay. So vikanda and vikandi. You should know what is the difference between these two. Since sri pratyaya prakarana, this is an often repeated question. There are many cases where there will be one form with tap and one form with ni. So what is the difference? When is there tap and when is there ni? Arthe kaha visheshaha. Iti bahu mukhyam. Because you can generally say, I mean, there are some cases where you can ask, is it, should the form be nada or nadi, which form is correct? Then the form is nadi is correct because there will be ni. But there are also such questions where both dikanda is also correct, dikandi is also correct. But in which sense? What is the difference in ni is also very important in sri pratyaya prakarana. We already saw such things. You have the ashtaka and ashtika. Where is it ashtaka? Where is it ashtika? Kutra vartaka, kutra vartika, ityadi. So bahu. They also form a major part of sri pratyaya. Knowing the difference in meaning, or the fine shades in meaning, which lead to different forms. So, kshetre kim dvikandi rajjuhu. Agreement sutra masti, purusha pramane anyatasya. Pramane Anyatarasyam iti Agrimam Sutram. Purushat Pramane Anyatarasyam iti Treni Padane Sante. So, Neet iti Anavattate Vigohu iti Kati Dalupi iti. Pramane iha Purushaha Tadantat Vigohu Neet Vasya Sati Dalupi. So, there is a Neet Vikalpa which is being told. Sati Dalupi Sati Neet Vikalpena Bhavati Dhusamasya. Kada Purusha Shabdaha Samasasya Ante Bhave. There should be the word Purusha at the end. Pramane Yaha Purushaha. And that Purusha being used as a measure. Purushaha Ityasya. Purushaha Ityasya. It means a man. Kintu Pramana Vachakatvena Api Purusha Shabdasya Upayogaha Asti. So you see that in the Vyakhyana, that Purusha is used as a measure. So Yada Tasya Pramana Vachakatvam Asti. Tada Vikalpena Neet Bhavati. Dvau purushau pramanam asyaha. Sa vipurushi vipurusha va parikha. So there are two forms. Hipi sati vipurushi iti bhavati. Hipaha bhave taki vipurusha iti. Dvau purushau pramanam. Dvau purushau iti. Panchahastayamaha purushaha iti. So purusha when used as a measure. Panchahastayamaha. So panchahastish purushaha iti shilva sutra. So, Purusha is taken as a measure of five arathnis. As I already said, arathni is that measure from elbow to the little tip of the little finger. So, pancha arathni Purushaha. So, five arathnis together will make a measure called Purusha. So, now, dhau Purushau pramana asyaha. So, you are referring to the height of this parikha. Parikha is the moat around four. Water filled moat which is used for protection, that is parikha. So, to indicate the depth of that parikha, they are using a measure called dvau purushau pramana. So, it is deep. How deep? Dvau purushau. So, around 10 of that arasni, which is the depth of the pariha is around 10 arasni. So, Dvaupurushau Pramana Vasyaha, इत्यर्थे द्विपुरुषी इति अपि रूपं भवति द्विपुरुषा इति अपि रूपं भवति रूपद्वयम् सो दैट्स इट सो पञ्चस्थायामः पुरुषः इत्युच्यते पञ्चारथ्यः पुरुषः इति शुल्बसूत्रा द्वौ पुरुषौ प्रमाणमस्याः इति विग्रहे सद्धिलार्थ इति द्योतमासः प्रमाणे द्वैतस्तद्धे मात्रतः इति तस्य मात्रतः प्रमाणेदः दिवो नित्यम् इति युक् सो द सेम् थिङ्ग् दर् इस् कथित लुक् तत्र उक्तरीत्या पुरुषप्रमाणस्य आयामात्मकस्य अपरिमाणः इति नित्यम् ईत् विशेषे प्राप्ते विकल्पार्थम् इदं वचनम् दर् इस् विकल्प बीङ्ग् गिवन् बै दिस् सूत्र एण्ड् देर् फोर् दर् आर् टु फार्म्स् रिसल्टिङ्ग् एनि क्वश्चन्स् Yes. Oh, okay. Right. Exactly. It is a small red seed with the tip will be black. That is taken. Oh. So it is taken as the standard, but that it is still impractical even. My knowledge is all theoretical. I've never seen it. I mean, I've seen that seed, but I've never seen it being used for breeding. Yeah, that is the... I think sari, yeah, true. Yeah. I know. True, that is what it is taken, that an average height of a man is assumed to be the number. Of course, height varies, but on an average, they take it as 5. But true, I mean, all these are still, maybe now probably they are going out of... But many of these measures are still called as like this. Mada is very popular even today. That is the standard for the flask, that is the garland, the mala. So, yeah. Okay, I think we'll stop here.
Enakshasamam Nayamadigam Maheshwara Krishna Vyakaranam Sukhtam Tasmai Pandi Namaha मुनित्रय नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं रच्यते